अथ कृष्णस्तोत्रम् बाला ऊचुः यथा संरक्षितं ब्रह्मन् सर्वापत्स्वेव नक्कुलम् तथा रक्षां कुरु पुनर्दावाग्निर्मधुसूदन त्वमिष्टदेवतास्माकं त्वमेव कुलदेवता स्रष्टा पाता च संहर्ता जगतां च जगत्पते वह्निर्वा वरुणो वापि चन्द्रो वा सूर्य एव च नमः कुबेरपवन ईशानाद्याश्च देवता ब्रह्मेश शेषधर्मेन्द्रा मुनीन्द्रा मनवस्मृता मानवाश्च तथा दैत्या यक्षराक्षसकिन्नरा ये ये चराचराश्चैव सर्वे तव विभूतय आविर्भावस्थिरो भाव सर्वेषां च तवेच्छया अभयं देहि गोविन्द वह्नि संहरणं कुरु वयं त्वां शरणं यामो रक्षणः शरणागतान् इत्येवमुक्त्वा ते सर्वे तस्थ्युर्ध्यात्वा पदाम्बुजं दूरीभूतस्तु दावाग्ने श्रीकृष्णामृतदृष्टितः दूरीभूते च दावाग्नौ नन्ऋतुस्ते मुदान्विता सर्वापदप्रणश्यन्ति हरिस्मरणमात्रतः इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् वन्नितो न भवेत् तस्य भयं जन्मनि जन्मनि शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसङ्कटे स्तोत्रमेतत् पठित्वा तु मुच्यते नात्र संशयः इति श्रीब्रह्मवैवर्ते बालकृतं कृष्णसूत्रं सम्पूर्णम्।